गर्भासमन्दाद्रवदतम् व्यापदोस्तजोर्जुष्टिम् मातरिष्वा जगाम दिवस्पजो दिधिषाणा अवेशन् विदर्देवाः सहसा मानमर्गम् तिस्रो देष्ट्रा जनरृदेरुपासते दीर्घश्रुतो विः जानन्ति मह्नजः तासान्यचक्यः कवचो निदानम् परेषु जागुह्येषु व्रतेषु चतुष्कवर्ताजुपतिः स्वपेशा घृतप्रदेका भजना निमस्ते तस्याम् सुपर्णावृषणानिषेदतुर्यत्र देवादधिरे भागधेयम् एकः सुपर्णः स समुद्रमाविवेश स इदम् विश्वम् भुवनम् विचष्टे तम् पाके न मनसा पश्यमन्दितस्तम् मातारेळ्हि स उरेळ्हि मातरम् सुपर्णम् विप्राः कवचोपचोभिरेकम् सन्तम् बहुधा कल्पयन्ति छन्दांसि च दधतो अध्वरे शुक्रहान् सोमस्य मिमते द्वादश षट्त्रिंशांश्च चतुरः कल्पयन्तश्छन्दांसि च दधत आद्वादशम् यज्ञम् विमाजकवचो मनेशरक्सामाभ्याम् प्ररथम् वर्तयन्ति चतुर्दशान्ये महिमानो अस्य दन्धेरा वाचा प्रणयन्ति सप्त आप्नानन्देऽर्थम् क इह प्रवो चद्येन वधा प्रपिबन्ते सुदस्य सहस्रधा पञ्चदशाञ्जुक्था यावद्या वा पृथिवीतापदि तद सहस्रधा महिमानः सहस्रञ्जावद्ब्रह्मविष्ठितम् दावदेवाक कश्चन्दसाञ्जोगमावेदधीरः कोऽधिष्ठ्याम् प्रतिवाचम् बवाद कमृत्विजामष्टमम् शोरमाहुरहरे इन्द्रस्य निजिकायकस्मिद भौम्या अन्तम् पर्येके चरन्तिरथस्य धोर्षुजुक्तासो अस्थुः श्रमस्य दाजम् विभजन्तेभ्यो जदाजमो भवति हर्म्ये हितः